ज्ञान विज्ञान प्राप्त्यर्थम् वेदांत पठन हेत्वर्थम् कर्मार्पणं कुरु
Hey.